सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे. अस्माकं प्रवर्तमानः विषयः अस्ति तत्र गुणाः अपि तत्र तेषां लक्षणं, गुणानां लक्षणं पूर्वं तत्र नाम उद्देशग्रन्थे तत्र नामकरणं सर्वं जातं. तदनन्तरं लक्षणग्रन्थे वयं तत्र द्रव्याणां नाम तत्र पृथ्व्याः लक्षणं, जलस्य लक्षणं, तेजसः लक्षणं, वायोः लक्षणम्, आकाशस्य लक्षणम् अपि परिशीलितवन्तः, निरूपितवन्तः च. इदानीं तत्र अग्रे तत्र कालस्य लक्षणं भवति, किन्तु तस्मात् प्राक् तत्र पञ्चगुणानां विषये नाम तत्र रूप, रस, गन्ध, स्पर्श इति तत्र तेषां तत्र किञ्चित् चिन्तनं भवति. अतः तत्र रूपम् इति स्वीकृत्य तस्य लक्षणम् अग्रे आयाति, किन्तु रूपम् इति गुणः केषु, रूपम् इति गुणः अस्ति, गुणः अस्ति चेत् तत्र गुणस्य आश्रयः सर्वदा किं भवेत्? गुणस्य आश्रयः
द्रव्यं,
गुणस्य आश्रयः सर्वदा द्रव्यं. गुणः समवायसम्बन्धेन द्रव्ये तिष्ठति. इदानीं तत्र रूपं केषु द्रव्येषु वर्तते, कोऽपि वदति वा?
अष्टविंशति गुणाः
सन्ति. न भगिनि, रूपम् इति गुणः तत्र केषु द्रव्येषु वर्तते?
पृथ्वी,
समीचीनं, पृथिव्यां वर्तते, समीचीनं.
जले वर्तते,
जले वर्तते, समीचीनं.
तेजसि
अपि वर्तते. वायु वर्तते वा?
न.
हा, तत्र वायोः लक्षणं किम् अस्ति?
स्पर्शम्.
वायोः लक्षणं कोऽपि स्मरति वा?
वायोः लक्षणं
रूपरहितः स्पर्शवान् इति. अतः तत्र वायु रूपं नास्ति, आकाशरूपं नास्ति, काले नास्ति, दिशि नास्ति, आत्मनि नास्ति, मनसि नास्ति, केवलं त्रिषु द्रव्येषु रूपं वर्तते. तत्र रूपं यत् रूपं तत्र जले वर्तते, तत्र तत्र रूपं पृथिव्यां वर्तते, जले वर्तते, तेजसि वर्तते. तेजसि यद्रूपं वर्तते तस्य नाम अस्ति तत्र शुक्लभास्वररूपम् इति. तत्र शुक्लभास्वररूपम् भास्वरशुक्लरूपम् इति, क्षम्यतां, हा, भास्वरशुक्लरूपम् इति तस्य नामकरणं भास्वरशुक्लरूपं.
तद् किमस्ति
रूपं? यत् रूपं तत्र तेजसि वर्तते तस्य नाम अस्ति भास्वरशुक्लरूपं. तत्र रूपस्य अनेके प्रकाराः सन्ति, अग्रे गत्वा द्रक्ष्यामः. तत्र सप्तविधरूपाणि, तत्र सप्तविधरूपस्य सप्त विध सन्ति, तेषु एकमेव तत्र तेजसि वर्तते भास्वरशुक्लरूपम् इति. तेजसि वर्तते अपि तत्र जले अभास्वर शुक्लरूपम्. रूपम् इति तत्र जले वर्तते.
भास्वर इति वदनेन अर्थं किम्?
अग्रे गत्वा पश्यामः. तत्र किन्तु शुक्लरूपं तत्र पीतरूपम् इति रूपम् इति गुणः अस्ति, रूपम् इत्युक्ते तत्र शेप् इति नास्ति खलु, वर्णः इति अस्ति खलु. अतः तत्र सर्व रूपस्य सर्वे विधाः तत्र पृथिव्यां भवन्ति, किन्तु यत् तेजसि भवति तस्य नाम अस्ति भास्वरशुक्लरूपम्. एकं विधमेव तेजसि रूपम् अस्ति, अपि जले यत् रूपम् अस्ति तस्य नाम अस्ति अभास्वरशुक्लरूपम् इति. अपि पृथिव्यां तत्र सर्वविधरूपं भवति. अस्तु, किन्तु वायोरूपं नास्ति, तेज अपि आकाशे रूपं नास्ति, काले रूपं नास्ति. अस्तु, इति प्रथमतया अस्माभिः ज्ञातव्य. अस्तु, अग्रे तत्र तत्र स्पर्शः, गन्धः, स्पर्शः, अपि तत्र संख्या इति अस्ति, संख्या इति अपि अस्ति, तदनन्तरं परिमाणम् इति अस्ति. परिमाणं नाम किम्? आङ्ग्लभाषायां किं वदन्ति परिमाणं नाम? पुनः कृपया, परिमाणं
यूनिट् आफ् मेजर्मेण्ट् वा?
केवलं मेजर्मेण्ट् नाम तत्र सैज् इति अस्ति. हा, नीता भगिनी नमस्कारः.
नमस्कारः, क्षम्यतां.
चिन्ता मास्तु, तत्र नूतनतया तत्र के आगतवन्तः तत्र.
नमस्ते, नमस्ते महोदय. लक्ष्मी,
जयलक्ष्मी भगिनी नमस्कारः. सुधा भगिनी नमस्कारः. कोऽपि आगतवन्तः वा? राजीभगिनी नमस्कारः. राजीभगिनी नमस्कारः. अस्तु अस्तु, तर्हि तत्र अतः तत्र परिमाणं नाम सैज्. तत् सः गुणः कुत्र वर्तते?
पृथ्वी, जले अपि अस्ति.
जले अपि अस्ति, वायुः अस्ति वा?
वायुः अपि अस्ति, द्रष्टुं न शक्नुमः.
न, अस्ति न वा इति एव प्रश्नः
अस्ति.
अतः तत्र परिमाणं तु सर्वत्र अस्ति, सर्वेषु द्रव्येषु परिमाणम् इति गुणः वर्तते. अतः तत्र परिमाणम् इति तस्य त्रैविध्यम् अस्ति. तत्र लघु इति अस्ति चेत् तत्र परमाणुपरिमाणम्, एतत् लघु. लघु अस्ति चेत् लघु, तत्र परमाणवः तत्र तेषां तत्र परिमाणम् अति लघु भवति खलु. परमाणवः किं सन्ति तत्र? यदि वयं तत्र किमपि पाषाणं स्वीकुर्मः, जलं वा अथवा जलं पृथ्वी वा तेजः वा जलं वा किमपि स्वीकृत्य तेषां तत्र खण्डं कृत्वा तत्र नाम यथा तत्र वस्त्रस्य पटवः एव अवयवाः सन्ति, तथैव यदि वयं तत्र एतस्य भागस्य पृथ्व्याः भागः तत्र किमपि पाषाणखण्डं स्वीकृत्य तस्य अवयवाः के, अन्तिम तत्र सूक्ष्मतम अवयवाः के इत्युक्ते तत्र तेषां नामकरणमस्ति परमाणवः इति. ते तु अति लघु सन्ति तत्र परमाणवः.
परन्तु तत्तु आटम्
इति नास्ति. आटम् इति नास्ति भगिनि, केवलं तत्र परमाणवः इति. तत्र एतत् शास्त्रं भिन्नं, तत्र अपि तत्र आधुनिक तत्र शास्त्रं यदस्ति तद् भिन्नम् अस्ति, यतोहि तत्र अस्य अवयवाः परमाणोः अवयवाः न सन्ति. तस्य पुनः खण्डनं न कर्तुं शक्नुमः. तदस्ति परमाणु. तत्र नूतन आधुनिकविज्ञाने तत्र आटम् इति तस्य अवयवाः सन्ति वा?
अवयवाः सन्ति, न्यूक्लियस्.
अतः तत्र भगिनी तत्र इदानीम् अत्र स्मः, अस्मिन् विषये अवगच्छामः.
परन्तु ऐ थिङ्क् दे न्यू
आङ्ग्लभाषायां मास्तु भगिनि, संस्कृतेन वदतु.
परन्तु प्राचीन जनाः जानाति
किन्तु तत्र परमाणवः इत्युक्ते तत्र सूक्ष्मतम अवयवाः, सूक्ष्मतम अवयवाः पदार्थस्य. अस्तु अस्तु, तर्हि तत्र तेषां परिमाणं लघु इति कृत्वा तत्र तस्य नामकरणं परमाणुपरिमाणम्. परमाणुपरिमाणं केषां भवति? तत्र परमाणोः अपि नाम्ना एव भवति. तत्र परमाणोः परिमाणं परमाणुपरिमाणमस्ति. अपि द्वयणुकस्य, द्वयणुकं यदस्ति, द्वयणुकं नाम परमाणुद्वयं, परमाणुद्वयं तस्य अपि परिमाणं परमाणुपरिमाणम् इव अस्ति. तदनन्तरं तत्र परमाणवः, तत्र पृथ्वी आदि चतुष्टयस्य परमाणवः नाम पृथ्वी, जलं, तेजः, वायोः, तेषाम् अवयवाः एव तत्र परमाणवः. सूक्ष्मतम अवयवाः एव परमाणवः. तेषां परिमाणं तु परमाणुपरिमाणम् अस्ति. द्वयणुकस्य अपि स एव तदेव परिमाणम् अस्ति. आकाशस्य, कालस्य, दिशः, आत्मनः, मनसः, तेषाम् अवयवाः तु न सन्ति तत्र. अतः तत्र तेषां परमाणवः इति वार्ता एव नास्ति. अपि तत्र एतद् लघु अस्ति, अन्य तत्र अस्ति परममहत्परिमाणम्. परममहत्परिमाणं नाम यस्य अपेक्षया बृहत्परिमाणं नास्ति. तत्र उत्कृष्टपरिमाणं तस्य अपेक्षया उत्कृष्टपरिमाणं नास्ति. अतः तेषु अन्तर्भूतः अस्ति. तत्र आकाशस्य परिमाणं तादृशमस्ति, तस्य उपरि, तस्य अधिकं परिमाणं कस्यापि नास्ति. अतः तत्र आकाशस्य अपि परममहत्परिमाणं, कालस्य अपि, दिशः अपि, तत्र अग्रे गत्वा तत्र जीवः अपि ईश्वरः एतावत् तस्य तयोः विषयः चिन्तनम् एतावत् न कृतं. किन्तु आकाशस्य, कालस्य एतत् परममहत्परिमाणमिति, महान् अथवा बृहत्. किन्तु एतत् विहाय सर्वं तत्र मध्यमपरिमाणं. तत्र घटपटादयः यत्सर्वं वयं लोके पश्यामः तत्सर्वं मध्यमपरिमाणम्. अपि पृथ्व्यादि चतुष्टयस्य विभागग्रन्थे तत्र वयं दृष्टवन्तः. तत्र एतेषां तत्र विभागः भवति नाम शरीरम्, इन्द्रियं, विषयभेदात् इति तत्र त्रैविध्यम् आसीत्. तेषामपि तत्र मध्यमपरिमाणं भवति. तत्र द्वयणुकस्य परमाणुपरिमाणमस्ति, किन्तु तत्र त्रयणुकम् आरभ्य सर्वं तत्र यत्किमपि भवत् तेषां सर्वेषां तत्र मध्यमपरिमाणं भवति इति परिमाणम् इति अस्ति. तत्र कोऽपि प्रश्नः वा एतावत्?
आचार्य,
कोऽपि ओपन् मैक्. पृथिव्यादि चतुष्टयस्य परिमाणवः इति वदति. मध्यमपरिमाणं घटपटादयः इति वदनेन पूर्णतया कृतं तद् एव
यत् लोके पश्यामः तत्सर्वं कार्यं, कार्याणि
सर्वे.
किन्तु तत्र अग्रे अपि दत्तमस्ति खलु, पृथ्व्यादि चतुष्टयस्य विभागग्रन्थे शरीरं वा इन्द्रियं वा विषयाः. विषयाः नाम किं? जलस्य विषयाः के सन्ति?
जलस्य विषयः के,
हा एतत् सर्वं स्मर्तव्यमस्ति। हा अस्तु, अन्य कोऽपि प्रश्नः? वदतु भगिनि, जयलक्ष्मी भगिनी वदतु भगिनि।
महोदय, अत्र भेदः अस्ति इति ज्ञातं, किन्तु भेदः कः इति समीचीनतया न अवगतं।
सत्यं, समीचीनं भगिनि। एतत् एतत् कोष्टकं यदस्ति तद् पुटद्वयानन्तरम् आगच्छति, किन्तु केवलम् एकवारं तत्र मनसि भवेत् इति तत् उक्तं, किन्तु परिमाणस्य तत्र किमर्थम् एतत् सर्वम् अस्ति इति अग्रे तस्य विवरणं भवति भगिनि, नाम तत्र नाम तत्र परमाणुपरिमाणम् अस्ति अतिलघु, परममहत्परिमाणम् अस्ति, यस्य अपेक्षया बृहत्परिमाणं नास्ति, नाम अतिबृहत् तदस्ति परममहत्परिमाणम्। यद् परमाणुपरिमाणं नास्ति अपि परममहत्परिमाणं नास्ति, तत्सर्वं मध्यमपरिमाणम् इति उच्यते। अतः तत्र इदानीं प्रश्नः भगिनि, भवत्याः प्रश्नः
अत्र परमाणुपरिमाणम् इत्यस्मिन् कोष्टके आवल्यां पृथिवादिचतुष्टयम् अस्ति, तत्रापि अस्ति, ततः परं मध्यमपरिमाणम् इत्यत्रापि
कटपटादयः तत्र न भगिनि अत्र अस्तु, पृथिव्यादिचतुष्टयस्य परमाणवः द्वयोणकानि च, तावदेव तत्र परमाणुपरिमाणे अन्तर्भूताः
इत्यस्य अर्थः
पृथिव्याः परमाणुः
इत्युक्ते पृथ्वी, वायु, तेज, तेषां
तेषां परमाणवः
द्वयोणकानि
च, तेषां परिमाणम् अस्ति परमाणुपरिमाणं।
द्वयणुकु मीन्स्
एकनिमिष भगिनि, वर्गे कृपया संस्कृतेन वदतु यावत्पर्यन्तं शक्यते। अस्तु, तत्र पार्थिवपरमाणु, तस्य परिमाणमस्ति परमाणुपरिमाणं खलु, अपि तत्र जलस्य अपि परमाणवः सन्ति, तेषामपि परमाणं परमाणुपरिमाणमेव, अपि तथैव तत्र तेजसः अपि वायोः, तदनन्तरम् आकाशस्य परमाणवः न सन्ति, यतोहि तत्र तस्य आकाशस्य अवयवाः एव न सन्ति, अपि परमाणोः अपि परिमाणं परमाणुपरिमाणमस्ति, तत्र नाम्ना एव अस्ति, तदनन्तरं द्वयणुकस्य अपि समानपरिमाणमस्ति इति चिन्तनम्। पार्थिव परमाणुद्वयम् अस्ति द्वयणुकम्,
तत्तु परमाणुपरिमाणस्य कृते पृथिव्यादिचतुष्टये तादृशं भवति,
तेषां परमाणवः अपि द्वयणुकानि च, तेषां परिमाणं सर्वं परमाणुपरिमाणम् अस्ति।
अस्तु, समीचीनम्।
अपि तदनन्तरं मनः, तत्र प्रत्येक जीवस्य मनः अस्ति, मनसः परिमाणमपि परमाणुपरिमाणमिति अग्रे निरूप्यते।
अस्तु,
तत्र
अस्तु,
अतः तत्र किन्तु एकः एव मनः नास्ति इति कृत्वा तत्र मनसि इति बहुवचने दत्तम्। तदनन्तरम् आकाशः, कालः, दिक्, जीवाः, ईश्वरः, तेषां परिमाणं परममहत्परिमाणमिति दत्तमस्ति।
अत्र जीवाः, ईश्वरः अत्र अस्माकं द्रव्येषु न आगच्छति खलु?
अतः एव उक्तवान्, एतावत् तयोः परिशीलनं न कृतवन्तः, अग्रे तस्य निरूपणं भवति. तेषां निरूपणं किमर्थं जीवस्य परिमाणं परमं महत् अस्ति इत्येतत् सर्वम् अग्रे एतस्य निरूपणं भवति. किन्तु एतेषां तु वयम् अवगन्तुं शक्नुमः खलु, आकाशस्य वा कालस्य वा खलु. तदनन्तरं तद्विहाय इदानीं तत्र घटपटादयः नाम पृथिव्यादिचतुष्टयस्य विभागग्रन्थे शरीरम् इन्द्रियं विषयाः इति तत्र त्रैविध्यम् आसीत्. ते सर्वे अपि तत्र मध्यमपरिमाणे अन्तर्भूताः सन्ति, नाम सरित् वा सरस् वा इन्द्रियं वा.
किन्तु ते अपि अत्र परमाणुपरिमाणमध्ये अपि आगच्छन्ति खलु इति घटपटादयः पृथिव्याम् अस्ति खलु.
अत्र समीचीनं भगिनि. तत्र अत्र अतः एव अहम् उक्तवान् तत्र एतत् उक्तमस्ति. किन्तु अत्र किम् अस्ति, अत्र त्रयणुकप्रभृत्य परमाणवः अत्र न सन्ति, द्वयणुकानि अपि न सन्ति, त्रयणुक आरभ्य
त्रयणुक अधिकं तस्मात् अधिकं
परमाणुकं नाम त्रयणुकं नाम तत्र द्वयणुकत्रयम्. अतः तत्र त्रयणुके कति परमाणवः सन्ति?
द्वयणुके द्वे एव.
द्वे समीचीनं. त्रयणुके
त्रयणुके षड्
द्वयणुकानि सन्ति. अतः तत्र षड् षड् परमाणवः सन्ति. त्रयणुके षड् परमाणवः सन्ति.
परिमाणौ सूक्ष्म अस्ति तत्कारणात् वयं दृष्टम् अपि न
एतावत् तत्र तस्य प्रत्यक्षम् इति वार्ता नासीत्. अग्रे
मध्यमपरिमाणः परिमाणवः वयं द्रष्टुं शक्नुमः. सम्यक् वा?
इति तत्र किं द्रष्टुं शक्नुमः? अग्रे आयाति. किन्तु परमाणुपरिमाणमस्ति चेत् यथा भवती उक्तवती तत्तु वयं न द्रष्टुं शक्नुमः. परमाणुपरिमाणमस्ति चेत् न द्रष्टुं शक्नुमः. किन्तु परमाणुपरिमाणम् अतिरिक्तपरिमाणमस्ति चेत् नाम परमाणुपरिमाणं नास्ति इति अस्ति चेत् तस्य दर्शनं भवति न वा इति अग्रे पश्यामः. अस्तु,
आचार्य एकः प्रश्नः. अत्र वायु तथा तेजसि अपि मध्यम परिमाणं वा?
वायु तेजसि आम् आम् यतो
चतुष्टय मध्ये पृथ्वी अपि तेज वायु
सत्यं त्रयणुकारभ्य
वायोः परिमाणं कर्तुं शक्यते वा
इति तेषां मतम्.
आम्, तर्हि अत्र वायु केवलं पृथ्व्या मण्डले अस्ति खलु, पृथ्व्या मण्डलस्य बहिः वायु नास्ति खलु?
पृथ्व्याः मण्डले इत्युक्ते किम्?
वायु यत् अनुभवामः रूपरहितस्पर्शवान् वायु, तस्य अनुभूतिः केवलं पृथ्व्याम् अस्ति खलु?
पृथ्व्याम् अस्ति इत्युक्ते किं भगिनि? तत्र वायु
पृथ्व्याः बहिः अपि वायु अस्ति वा, आकाशे अन्तरिक्षे?
भवति भगिनि, हीलियं भवति खलु अन्यत्र.
अस्ति वा?
किन्तु तत्र तत्र यद् अत्र दत्तमस्ति नाम परमाणु द्वयणुकं विहाय तत्र अन्येषां सर्वेषां यत् परममहत् परिमाणं नास्ति, परमाणुपरिमाणं नास्ति, तत्सर्वं मध्यमपरिमाणे अन्तर्भूताः भवन्ति. अस्तु, तर्हि
समानेव तेजसि अपि खलु, तेजसि तु सर्वत्र भवति खलु, तेजस्
तेजः सम्पूर्ण कुत्र कुत्र भवति इति. अस्तु, इदानीं तत्र अन्यविषयः तत्र एतत् सर्वं वयं पठितवन्तः पुनः. किन्तु अस्मिन् विषये तत्र ग्राहकः ग्राह्यः इति तस्मिन् विषये किञ्चित् चिन्तनं कुर्मः. तत्र ग्राहकः इत्युक्ते किम् इति कोऽपि वदति वा? तत्र तत्र चक्षुषा रूपं रूपस्य ग्रहणं भवति वा चक्षुषा चक्षुः रूपं गृह्णाति वा
आं महोदय
हा चक्षुः रूपं गृह्णाति अस्तु तर्हि तत्र चक्षुः रूपं गृह्णाति नाम गृह्णाति तत्र वयं वदामः तत्र चक्षुः ग्राहकः तत्र ग्राहकः ग्राह नाम प्रत्यक्षम् तत्र ज्ञानस्य चतुर्विधं भवति तत्र प्रत्यक्षज्ञानम् अनुमितिः उपमितिः शाब्दबोधः इति तत्र तस्य चतुर्विधाः चतुर्प्रकाराः सन्ति ज्ञानस्य यद् ज्ञानम् इन्द्रियेण लब्धं जातम् इन्द्रियेण जातं तस्य नाम अस्ति प्रत्यक्षं ज्ञानम् तत्र चक्षुषा यद् ज्ञानं भवति तत्र वयं वदामः रूपस्य ज्ञानं भवति ग्राह नाम प्रत्यक्षं कः नाम जनकम् कारणं तत्र चक्षुः रूपस्य ग्राहकं ग्राहकः अस्ति चक्षुरिन्द्रियं रूपस्य ग्राहकम् अस्ति अपि रूपम् अस्ति ग्राह्यम् ग्रा इत्युक्ते प्रत्यक्षं यकारः अस्ति तत्र कर्मणि अर्थे तस्य अर्थः अत्र अस्ति विषयः विषयत्वम् तत्र प्रत्यक्षज्ञानस्य विषयः अस्ति रूपं तत्र ग्राहकः नाम अथवा ग्राहकमस्ति इन्द्रियम् अपि ग्राह्यमस्ति गुणः अस्मिन् सन्दर्भे गुणः अस्ति ग्राह्यं ग्राह्यः अपि इन्द्रियमस्ति ग्राहकम् तत्र रूपमस्ति ग्राह्यम् अपि तत्र चक्षुः अस्ति ग्राहकं रूपस्य ग्राहकम् अस्ति चक्षुः चक्षुः किं गृह्णाति रूपं गृह्णाति तत्र चक्षुषा ज्ञानं भवति तस्य नाम अस्ति प्रत्यक्षज्ञानं रूपस्य ज्ञानं जनयति रूपमस्ति विषयः अतः तत्र रूपे विषयता अस्ति यद् ज्ञानं तेन तत्र चक्षुषा भवति तस्मिन् ज्ञाने विषयिता अस्ति अपि रूपनिष्ठविषयता निरूपितविषयिता अस्मिन् ज्ञाने अस्ति अतः तत्र ज्ञानं तत्र यद् ज्ञानं भवति चक्षुषा तद् अस्ति प्रत्यक्षज्ञानं तस्य ज्ञानस्य विषयः अस्ति रूपं रूपविषयकज्ञानं चक्षुषा भवति अस्तु इदानीं तत्र वयं कुत्र स्मः तत्र प्रतिनियतग्राह्याः गुणाः ग्राह्याः इति पदस्य अर्थः इदानीम् अवगतः इति मन्ये अस्तु इदानीं तत्र अग्रे सरामः तत्र एतत् सर्वं वयं परिशीलितवन्तः किन्तु एकवारं तत्र कुत्र आरभ्य वयं पठामः तत्र प्रायशः तत्र हा अत्र आरभ्य यदि पठामश्चेत् समीचीनं भवति इति मन्ये अस्तु तत्र धनश्री भगिनी नमस्कारः राजीव भगिनी हा धनश्री भगिनी नमस्कारः राजीव भगिनी तत्र तेषु इति तत्र तथा आरभ्य पठति वा भगिनि एतत् सर्वं पुस्तके एव अस्ति
तेषु चक्षुस्त्वक्मनांसि गुणस्य एव तदाश्रयद्रव्यस्यापि प्रत्यक्षं जनयन्ति चक्षुषा रूपस्य इव तदाश्रयस्य घटादेः अपि प्रत्यक्ष उत्पादनात् भवति हि उन्मीलितनयनस्य पुंसि नीलो घटः इति प्रत्यक्षात्मकं ज्ञानम्
तावत्पर्यन्तं किञ्चित् वदतु भगिनि
अत्र चक्षुः त्वक् मनांसि एतस्य एतस्य गुणस्य वयं न केवलं चक्षुः त्वक् मनांसि एतद्द्वारा वयं केवलं गुणस्य इति न तदाश्रयस्य द्रव्यस्यापि ज्ञानं प्राप्नुमः इति
अस्ति. समीचीनं. हा चक्षुषा यत् ज्ञानं भवति गुणस्य ज्ञानं, गुणस्य आश्रयस्य ज्ञानमपि भवति. समीचीनं. हा
चक्षुषा रूपस्य इव तदाश्रयस्य घटादेः अपि प्रत्यक्ष उत्पादनात् वयं चक्षुषा किमपि वस्तुं पश्यामः चेत्
तत्र पीतवस्त्रम् अस्ति इति चिन्तयतु.
पीतवस्त्रम् अस्ति इति वयं चिन्तयामः चेत् वयं पीतम् इति तस् गुणम् अपि वयं ज्ञातुं शक्नुमः, वस्त्रम् इति तद् द्रव्यमपि अस्माभिः ज्ञातुं शक्नुमः.
हा चक्षुषा तस्य ज्ञानं भवति.
चक्षुषा
तत्र पीतगुणस्य पीतरूपगुणस्य ज्ञानं भवति. चक्षुषा पीतगुणस्य पीतरूपगुणस्य आश्रयः नाम तत्र वस्त्रं यदस्ति तस्य अपि ज्ञानं प्रत्यक्षज्ञानं भवति खलु.
भवतिः उन्मीलितनयनस्य पुंसः नीलः घटः इति प्रत्यक्षात्मकं ज्ञानम्. नरः अस्ति चेत् तस्य नेत्रम् उन्मीलितम् अस्ति चेत् नीलः घटः इति वयं प्रत्यक्षं ज्ञातुं शक्नुमः. नीलः इति ज्ञातुं शक्नुमः, घटः इति द्रव्यमपि अस्माभिः प्रत्यक्षं भवति. द्वयमपि
तत्र घटस्य ज्ञानमपि भवति, घटे वर्तमानः नीलः इति गुणस्य अपि प्रत्यक्षज्ञानं चक्षुषा भवति. समीचीनं भगिनि. हा चक्षुषा भवति. समीचीनं. हा अस्तु, अग्रे तत्र योगेन्द्रमहोदय अग्रे पठति वा?
आं महोदय. एवमेव त्वगीन्द्रियमनसोः अपि आश्रयग्राहकत्वं बोध्यम् अन्येषु. एवम् एव त्वगि इन्द्रिय मनसोः अपि आश्रयग्राहकत्वं बोध्यम्
इत्युक्ते किम् इति किञ्चित् वदतु महोदय, तदनन्तरम् अग्रे सरामः.
त्वक् अस्ति तस्य
त्वग् इति इन्द्रियम् अस्ति. इन्द्रियं गुणं गृह्णाति.
मनः अपि इन्द्रिया
मनः अपि इन्द्रियम् अस्ति, किन्तु त्वग् इन्द्रियं कं गुणं गृह्णाति?
स्पर्शं गृह्णाति.
हा स्पर्शं गृह्णाति. अस्तु समीचीनं. हा स्पर्शं गृह्णाति. तत्र के स्पर्शः इति गुणः अस्ति वा द्रव्यमस्ति वा स्पर्शः?
स्पर्शः गुणः अस्ति.
गुणः अस्ति, गुणस्य आश्रयः भवेत्. हा द्रव्यं किमपि किमपि द्रव्यं भवेत् गुणस्य आश्रयः, स्पर्शस्य आश्रयः अपि तत्र किमपि द्रव्यम् अस्ति एव खलु. तत्र शीतस्पर्शः कस्मिन् द्रव्ये भवति?
जले.
जले. हा तादृशं तत्र द्रव्यम् अस्ति एव, आश्रयम् आश्रयः अस्ति. अतः तत्र त्वचा तत्र केवलं स्पर्शस्य ग्रहणं भवति इति न, किन्तु त्वचा तत्र आश्रयस्य अपि ग्रहणं भवति. त्वक् इति स्पर्शं गृह्णाति, स्पर्शस्य आश्रयमपि गृह्णाति, तस्य प्रत्यक्षज्ञानं जनयति त्वगिन्द्रियं. स्पर्शस्य अपि स्पर्शस्य आश्रयस्य अपि प्रत्यक्षस्य
आश्रयः कः भवति?
यत्किमपि अस्ति.
हा तत्र शीतस्पर्शः चेत्
शीतस्पर्शः इति यदि तत्र त्वचा प्रत्यक्षज्ञानं भवति, शीतस्पर्शः अस्ति इति तदा किं भवति तत्र कदा
स्पर्श अपि गृह्णाति अपि स्पर्शस्य ग्रहणं भवति अपि जलस्य ग्रहणमपि भवति
हा जलस्य ज्ञानमपि
ज्ञानमपि भवति
भवति हा एतत् ज्ञानं तत्र शीतस्पर्शः इति ज्ञानं प्रत्यक्षज्ञानं कदा भवति यदा तत्र त्वगिन्द्रियस्य अपि जलस्य संयोगः भवति खलु तदा एव तत्र शीतस्पर्शस्य ज्ञानं भवति अतः तत्र तस्मिन्नेव समये तत्र जलम् अस्ति इति अपि तत्र त्वचा ज्ञानं भवति अतः तत्र त्वचा तत्र गुणस्य ग्रहणम् अपि गुणाश्रयस्य अपि ग्रहणं प्रत्यक्षज्ञानं भवति तथैव तत्र मनसः अपि तत्र इदानीं तत्र बहिरिन्द्रियाणां विषयः अस्ति अतः मनसः विषयः अपि तत्र मनसा केषां तत्र ग्रहणं भवति इति अग्रे गत्वा तत्र बुद्धिः तत्र आत्मनः विशेषगुणाः तेषां ग्रहणं मनसा भवति इति कृत्वा तेषां तत्र चर्चा अग्रे भवति इदानीं केवलं तत्र रूपं रस एतेषां तत्र बहिरिन्द्रियेण बहिरिन्द्रियैः येषां ग्रहणं भवति तेषां विषयः भवतु इति अस्तु अग्रे महोदय
अन्येषु त्रिषु इन्द्रियेषु रसनेन्द्रियग्राणेन्द्रिययोः गुणमात्रग्राहकता न तु द्रव्यम् अपि ताभ्यां गृह्यते
अग्रे अपि पठतु महोदय हा
यद्यपि गूढः चक्षुषा गृह्यते इति न सः अतीन्द्रियः तथापि ग्राणरसनयोः गुणाश्रयग्राहकत्वं नास्ति ग्राणं गन्धस्य रसना रसस्य च जनयति प्रत्यक्षम् अन्येषु त्रिषु इन्द्रियेषु
अन्येषु त्रिषु इन्द्रियेषु नाम तत्र घ्राणेन्द्रियं रसनेन्द्रियं श्रोत्रेन्द्रियम् अस्ति तेषु द्वयं स्वीकृतमस्ति नाम रसनेन्द्रियम् अपि घ्राणेन्द्रियं तत्र तयोः किम् उक्तम्
गुणमात्रग्राहकता भवति न तु द्रव्यम् ग्राह्यते द्रव्यस्य ज्ञानं न भवति गुणस्य ज्ञानम् एव भवति
हा अतः तत्र तस्य उदाहरणं नाम रसनेन्द्रियं केवलं गुणं नाम गन्धस्य ग्रहणं करोति न तु गन्धस्य आश्रयस्य अतः तत्र उदाहरणं दत्तमस्ति उदाहरणं पुनः एकवारं पठतु महोदय यद्यपि
यद्यपि गुडः चक्षुषा क्रियते इति न सः अतीन्द्रियः तथापि ग्राणरसनयोः गुणाश्रयग्राहकत्वं नास्ति
तत्र गुडः अस्ति यदि गुडः अस्ति तं वयं खादामः तत्र किं भवति तत्र
चक्षुषा तु रूपं गायते परन्तु यदा खादामः तदा तस्य तस्मिन् रसः अस्ति तस्य ज्ञानं भवति
रसनेन्द्रियेण तस्य ज्ञानं भवति रसस्य ज्ञानं रसनेन्द्रियेण भवति किन्तु रसनेन्द्रियेण तत्र गूढः इति जानीमः वा अथवा साक्षात् जानीमः वा अथवा अनुमानं कर्तुं शक्नुमः वा
यदा चक्षु स गूढः इति न रूपं न ग्रायते ज्ञानं न भवति तदा रसनेन्द्रियेण तस्य आश्रयस्य ज्ञानं न भवति प्रायः इति
इति लिखितमस्ति यतोहि तत्र मधुरम् अस्ति इति ज्ञानं भवति मधुररसम् इति ज्ञानं भवति किन्तु स साक्षात् तत्र गूढः इति न वक्तुं शक्नुमः, गूढः स्यात् इति एव तत्र अनुमानं कर्तुं शक्नुमः अन्यैः इन्द्रियैः अथवा चक्षुषा एव तत्र गूढः इति ज्ञानं भवेत्, किन्तु रसनेन्द्रियेण साक्षात् तत्र आशयस्य ज्ञानं न भवति. तत्र हा तत्र यदि गूढं खादामः तत्र पार्थिवपदार्थः इति अस्ति इति जानीमः, किन्तु तदपि कथं तस्य ज्ञानं भवति? रसनेन्द्रियेण न भवति, किन्तु रसनेन्द्रियं कुत्र अस्ति? जिह्वाग्रवर्ति खलु. हा किन्तु जिह्वा इति तु तत्तु पार्थिवपदार्थः अस्ति खलु. हा जिह्वा यत्र अस्ति तत्र जिह्वा मध्ये त्वक् अस्ति वा तत्र? हा त्वक् तु सर्वत्र अस्ति खलु,
सर्वत्र अस्ति.
हा त्वच तत्र आश्रयस्य ज्ञानं भवति,
त्वचा अस्ति तदा आश्रयस्य ज्ञानं भवति,
ज्ञानं भवति. अतः तत्र तत्र गूढः अस्ति न वा इति प्रायः न जानीमः, किन्तु किमपि पार्थिवपदार्थः अस्ति इति तस्य ज्ञानमपि भवति. अतः तत्र इदानीं तत्र वार्ता अस्ति केवलं रसनेन्द्रियेण गुणस्य आश्रयं तत्र तस्य ज्ञानं भवति न वा इति तत्र प्रायः तत्र निश्चयेन वक्तुं शक्नुमः तत्र आश्रयस्य ज्ञानं न भवति, केवलं रसस्य ज्ञानमेव रसनेन्द्रियेण प्रत्यक्षं भवति, न तु रसस्य आश्रयस्य. अन्येन मार्गेण अथवा अन्येन माध्यमेन आश्रयस्य ज्ञानं भवेत्, किन्तु साक्षात् रसनेन्द्रियेण आश्रयस्य ज्ञानं न भवति.
एवमेव घ्राण इन्द्रियस्य,
घ्राणेन्द्रियस्य नाम तत्र दूरात् तत्र अन्यस्मिन् प्रकोष्ठे तत्र ओदनम्, ओदनस्य पचनं भवति इति चिन्तयतु. तत्र वयं तस्य गन्धः आगच्छति, दूरम् अस्ति चेदपि तत्र गन्धः आगच्छति. यावत्पर्यन्तं वयं न पश्यामः तत्र ओदनम् अस्ति इति, किन्तु तावत् ओदनस्य तत्र गन्धः तस्य घ्राणेन्द्रियेण तस्य ज्ञानमस्ति, प्रत्यक्षज्ञानमस्ति, किन्तु घ्राणेन्द्रियेण तत्र ओदनस्य प्रत्यक्षज्ञानं नास्ति खलु. अतः तत्र आश्रयस्य ज्ञानं नास्ति, किन्तु गुणस्य ज्ञानं अस्ति इति तत्र घ्राणेन्द्रियस्य अपि रसनेन्द्रियस्य एतादृश शक्तिः अस्ति. नाम तत्र केवलं गुणस्य प्रत्यक्षज्ञानं
एव भवति,
अस्तु. अतः तत्र घ्राणं गन्धस्य प्रत्यक्षं जनयति, रसना नाम रसनेन्द्रियं रसस्य प्रत्यक्षज्ञानं जनयति इति अस्ति. अस्तु, अतः एतावत् वयं पठितवन्तः. अस्तु, समीचीनं, धन्यवादः महोदय.
धन्यवादः.
अस्तु, अग्रे तत्र
महोदय एकः सन्देहः. इदानीं वयं पठितवन्तः तत्र त्वक् इन्द्रियस्य गुणस्य एव तत्र प्रत्यक्षं भवति, अनन्तरं चक्षुरिन्द्रियस्य अपि प्रत्यक्षं भवति, परन्तु घ्राणेन्द्रियस्य गुणस्य एव प्रत्यक्षं भवति, आश्रयस्य प्रत्यक्षं न भवति इति किल. परन्तु तत्र त्वक् इन्द्रियेण वायुना स्पर्शः भवति चेत् प्रत्यक्षं न भवति किल?
वायु अस्ति इति तस्य न अनुभूयते वा?
वयम् अनुभवामः त्वक् इन्द्रियेण, सो वायुः अस्ति इति अनुमानं कुर्मः, परन्तु प्रत्यक्षं न भवति किल, तदा कथं?
वायुः अस्ति न, वायुः अस्ति इति प्रत्यक्षं तत्र त्वचा तस्य ज्ञानं न भवति इति वा?
आं किल,
तत्र वायोः तत्र संयोगः न भवति वा? त्वक् अपि तत्र वायोः संयोगः न भवति वा? यदा तत्र प्रकोष्ठे तत्र
प्रकोष्ठे
व्यजनमस्ति, वायुः व्यजनात् आगच्छति, परन्तु वयं त्वक्केन्द्रियेण तद् अनुभवामः. परन्तु तत्र प्रत्यक्षम् इति किमपि नास्ति किल. प्रत्यक्षं चेत् वयं चक्षुषा व्यजनमस्ति इति वयं जानीमः.
किन्तु किन्तु तत्र वायुः अस्ति चेत् तत्र वायोः अपि त्वक् तयोः संयोगः न भवति वा? केवलं तत्र तत्र यदि स्पर्शः भवति तत्र किं तत्र स्पर्शः कयोः मध्ये भवति? स्पर्शः अस्ति तत्र स्पर्शः भवति तत्र केवलं पार्थिवपदार्थः अस्ति वा? त्वग् अपि पार्थिवपदार्थः अस्ति वा? त्वग् अपि तत्र यदा स्पर्शः भवति त्वगिन्द्रियस्य ज्ञानं भवति, स्पर्शः स्पर्शस्य प्रत्यक्षज्ञानम् अस्ति. तत् कदा भवति? त्वग् अपि अन्य कोऽपि पदार्थः अस्ति, तयोः मध्ये संयोगः भवति खलु, तदा एव तत्र ज्ञानं भवति खलु. खलु तत्र यदि शीतस्पर्शः अस्ति तत् कदा भवति? त्वगिन्द्रियस्य अपि जलस्य संयोगः यदा भवति तदा एव तत्र शीतस्पर्शस्य ज्ञानं भवति खलु. तथैव तत्र केवलं स्पर्शः अस्ति चेत् तत्र प्रकोष्ठे यथा भवती उक्तवती तथा यदि कुर्मः तत्र प्रश्नः समीचीनः. अतः तत्र जनाः के चिन्तयन्ति तत्र
समानप्रश्नः अस्ति इत्युक्ते गुणस्य आश्रयः द्रव्यस्य कथम् अत्र त्वचा यत्किमपि गृह्यते चेत् अत्रापि गुणस्य आश्रयः तस्य अवगमनं कथं भवति इति तस्य ज्ञानं कथं भवति इति प्रत्यक्षेण भवति वा? प्रायः अनुमानेन अत्र किमपि आशयः
अत्र उक्तमस्ति तत्र प्रत्यक्षं ज्ञानम् इति. अतः तत्र एतद् उदाहरणं समीचीनमस्ति. जनाः के चिन्तयन्ति
महोदय? यदि
तदपि एकमस्ति वायोः स्पर्शः इति विषये. अनन्तरं वयं नेत्रं निमील्य यत्किमपि वस्तुं वयं स्पर्शयामः, घटस्य स्पर्शनं वयं कुर्मः चेत् तत्र अनुमानम् एव घटः स्यात् इति एक अनुमानं वयं कुर्मः. परन्तु यदा वयं नेत्रम् उन्मील्य वयं पश्यामः चेदेव प्रत्यक्षज्ञानं भवति किल.
अतः तत्र यदि तत्र आश्रयस्य ज्ञानम् इति तत्र एतत् चिन्तयामः तत्र आश्रयस्य ज्ञानं तत्र साक्षात् घटः एव तत्र इति. किन्तु किमपि तत्र आश्रयस्य किमपि ज्ञानं भवेत् नाम पार्थिवपदार्थः अस्ति एतादृशं द्रव्यमस्ति तादृशं ज्ञानं भवति वा? नाम सम्पूर्णज्ञानम् इति वार्ता नास्ति अत्र खलु. खलु आश्रयस्य ज्ञानं भवति न वा इति प्रश्नः. आश्रयस्य किमपि ज्ञानं तत्र तेन इन्द्रियेण लभ्यते न वा इति प्रश्नः. सम्पूर्णज्ञानम् इति नास्ति.
तर्हि जि तत्र ग्राणस्य विषये अपि वयम् ओदनस्य ज्ञानं प्राप्नुमः एव किल. अस्माकम् एतद् एक अनुभवः
अनुभव इति भिन्नं खलु. अतः एव चक्षुज्ञानं तत्र अस्मिन् सन्दर्भे तत्र किमस्ति प्रत्यक्षज्ञानम्. प्रत्यक्षज्ञानं नाम इन्द्रियेण लब्धं ज्ञानं. वयम् अत्र किं तत्र घ्राणेन्द्रियेण गन्धस्य प्रत्यक्षज्ञानं भवति खलु. गन्धः अस्ति इति घ्राणेन्द्रियेण वयं जानीमः भवति अतः तत्र गन्धस्य प्रत्यक्षज्ञानं घ्राणेन्द्रियेण भवति घ्राणेन्द्रियेण एव गन्धस्य आश्रयस्य अपि ज्ञानं भवति न वा इति प्रश्नः अन्या रीत्या तस्य ज्ञानं भवति न वा इति न प्रश्नः खलु
जि तत्र भवान् उक्तवान् तत् यत्र वयं त्वक्किन्द्रियेण घटस्य स्पर्शनं कुर्मः तदा एकः पार्थिवपदार्थः अस्ति इति एक ज्ञानं जनयति अतः किमपि तत्र आश्रयस्य ज्ञानम् अस्ति इति कारणात् तत्र आश्रयस्य ज्ञानमपि त्वक्किन्द्रियेण भवति इति भवान् तत्र रसनेन्द्रियेण अथवा घ्राणेन्द्रियेण अपि एक पार्थिवपदार्थस्य गन्धः आगच्छति पार्थिवपदार्थात् किमपि गन्धः आगच्छति इति अस्माकं ज्ञानं भवति किल
किन्तु भगिनि किन्तु गन्धः कुत्र कुत्र वर्तते
गन्धः पृथिवी
पृथिव्यामेव वर्तते अतः तत्र गन्धः अस्ति चेत् पार्थिवपदार्थः एव अस्ति अन्यत् किमपि नास्ति खलु
आमाम्
अतः तत्र कीदृशं कीदृशं द्रव्यम् इति नाम पार्थिवद्रव्यं किन्तु तस्य अनन्तरं किमपि न वक्तुं शक्नुमः पार्थिवपदार्थः तत्तु अस्ति किन्तु आशयस्य ज्ञानमस्ति चेत् तत्र अन्यत् किमपि तत्र भवेत् इति तेषां चिन्तनं तावदेव अस्तु इदानीं तत्र प्रकोष्ठे तत्र वायुः अस्ति तस्मिन् विषये तत्र अन्येषां चिन्तनं किमस्ति वदन्तु
महोदय प्रत्यक्षनाम केवल चक्षुषा ज्ञानम्
इति नास्ति
अतः यदि वायोः स्पर्शं भवति तदा साक्षात् स्पर्शं भवति एव अतः साक्षात् यः आधार आश्रयः अस्ति तस्य एव स्पर्शः भवति
इति
न तु आश्रयभिन्नः कश्चन पदार्थः अस्ति तस्य स्पर्शः यथा घ्राणेन्द्रिय अस्ति आश्रयात् पृथक् भवति ये गन्धपदार्थाः तस्य स्पर्शः भवति तस्य ज्ञानं भवति घ्राणेन्द्रियेण न तु स्पर्शं परन्तु वायोः साक्षात् वायोः एव स्पर्शः भवति अतः तत् आश्रयग्राहक इति
अतः तत्र अतः एव तत्र त्वगिन्द्रियम् अस्ति अपि अन्य कोऽपि पदार्थः भवेत् तयोः संयोगः यदा भवति तदा एव तत्र स्पर्शस्य ज्ञानं भवति त्वगिन्द्रियमपि जलं तयोः संयोगः यदि नास्ति तत्र शीतस्पर्शस्य ज्ञानं त्वगिन्द्रियेण न भवति हलो
महोदय
वदतु भगिनि
अत्र त्वचा यत्किमपि ग्राह्यते तत्र गुणस्य तु भवति शीतः न चेत् शीतस्पर्शः न चेत् उष्णस्पर्शः इति त्वचा एव ग्राह्यते किन्तु तस्य आश्रयस्य इत्युक्ते द्रव्यस्य द्रव्यं किम् इति प्रत्यक्षं न जनयति इति मम अपि चिन्तनम् अस्ति त्वचा त्वक्केन्द्रियेण द्रव्यस्य प्रत्यक्षं न जनयति यतोहि गुणस्य तु भवति इदानीं हस्तस्पर्शः न चेत् घटस्य स्पर्शः अस्ति चेत् स्पर्शः इत्यस्य गुणमस्ति तत्तु ज्ञायते किन्तु तस्य आश्रयः हस्तं वा घटं वा इति ज्ञानं पूर्व अनुभवेन एव ज्ञायते न तु प्रत्यक्षम् इति भावयामि इति मम चिन्तनम्
अत्र स्थूलरूपेण तत्र आश्रयम् आश्रयः कः इति चिन्तनं कुर्मः नाम तत्र आश्रयः पृथ्वी वा जलं वा तेजः वा इति तादृशं चिन्तनं तादृशं ज्ञानम् आश्रयस्य अस्ति चेत् अपि वयं वक्तुं शक्नुमः तत्र त्वचा आशयस्य ज्ञानम् अस्ति इति खलु
महोदय यः कोऽपि वस्तु द्रव्यः भवेत् तस्य ज्ञानं केवलं चक्षुषः एव भवति किल यतोहि बाल्यावस्थे किमपि न वयं न जानीमः
अत्र सत्यं भगिनी किन्तु अत्र किम् उक्तमस्ति पूर्वज्ञानं नाम तत्र हा स्मृतिः यदस्ति तद् अनुभवः यदस्ति तद् ज्ञानम् एकविधं ज्ञानम् अस्ति अन्यदस्ति तत्र प्रत्यक्षज्ञानं नाम केवलम् इन्द्रियेण लब्धं ज्ञानम् इन्द्रियेण कीदृशं ज्ञानं भवति केवलं तस्य चर्चा अत्र भवति
आम् त्वचा यद् यत्किमपि वयं स्पृशामः तत् किमपि द्रव्यमस्ति इति जानीमः परन्तु यदा चक्षुषा तत् न तद् न द्रष्टं तत् न जानीमः यथा रसनायाः विषये अस्माकं चर्चा अभवत् यदि गुडस्य इति कथं जानीमः चक्षुषा द्रष्टम् इत्येव कारणेन यदि न दृष्टं
गुडं न दृष्टं तत्र अनुमानस्य अपेक्षा भवति सत्यं गुडस्य विषये
अत्रापि त्वचः विषये अपि तदेव सत्यं खलु अनुमानं कर्तुं शक्नुमः यतोहि तत् प्राक् दृष्टमिति कृत्वा अनुभूतमिति कृत्वा
अस्तु तर्हि तत्र जलम् अस्ति इति तत्र शीतस्पर्शः तत्र तस्य ज्ञानं भवति त्वचा तत्र जलस्य ज्ञानं भवति न वा
हा किमपि द्रववस्तु जलं या तु द्रववस्तुः अस्ति इति ज्ञानं भवति
केन भवति त्वचा भवति वा
त्वचा भवति
तथैव तत्र उष्णस्पर्शः अस्ति चेत्
तदपि त्वचा एव भवति
अतः तत्र आश्रयस्य ज्ञानं भवति खलु तर्हि
आम्
इति एव तत्र सर्वदा भवति इति अपि वयं न वदामः आश्रयस्य ज्ञानं केषुचित् सन्दर्भेषु भवति चेत् आश्रयस्य ज्ञानं भवति
आं महोदय धन्यवादः
प्रत्यक्षज्ञानं भवति तत्र प्रत्यक्षज्ञानं भवति इति इत्युक्ते तत्र सर्वदा आश्रयस्य ज्ञानम् अस्ति इति न प्रत्यक्ष आश्रयस्य ज्ञानं भवति इति अहं चिन्तयामि तत्र प्रायशः तेषां तत्र नैयायिकानां मतं तत्र सर्वदा भवति इति अपि भवेत् किन्तु उदाहरणे तत्र उदाहरणं वयं द्रष्टुं तत्र जले शीतस्पर्शः अस्ति शीतस्पर्शस्य ज्ञानं यदा भवति तत्र जलस्य ज्ञानमपि भवति यतोहि तत्र संयोगः अस्ति जलस्य अपि त्वगिन्द्रियस्य अपि तेजः अपि त्वगिन्द्रियस्य तयोः यद् संयोगः अस्ति तदा एव तत्र उष्णस्पर्शः तस्य प्रत्यक्षज्ञानं भवति अतः तत्र उदाहरणेन तत्र अस्तु इति चिन्तनं भवति चेत् आश्रयस्य ज्ञानं भवति इति स्वीकर्तुं शक्नुमः तत्र सर्वदा भवति इति तस्मिन् विषये तत्र चिन्तनम् अपेक्षितम् इति मन्ये यथा तत्र प्रकोष्ठे तत्र वायुः अस्ति अतः तत्र
महोदय
वदतु भगिनि
प्रश्नः तत्र ग्राहकत्वम् अपि ज्ञानम् इत्यनयोः भेदः अस्ति इति
आमां भगिनि
तत्र ग्राहकत्वम् इति
न न तत्र चक्षुः रूपं गृह्णाति रूपमिति गुणः ग्राह्यः गुणः खलु ग्राहकः ग्राहकं किमस्ति ग्राहकं रूपस्य ग्राहकं
चक्षुः
ग्राहकत्वं कुत्र वर्तते
चक्षु तत्र सप्तमी किं
चक्षुषी
चक्षुषी वर्तते
ज्ञानं कुत्र वर्तते
ज्ञानं तत्र मनसि वर्तते अथवा
अतः तत्र ज्ञानं भिन्नम् अस्ति
तदेव तत्र विषयः अस्ति इति मम प्रश्नः अस्ति महोदय तत्र त्वग् एवमेव त्वग् इन्द्रियमनसोः अपि आश्रयग्राहकत्वं भवति इति उच्यते न तु ज्ञानम् किन्तु भवान् वदति ग्राहकत्वं भवति चेत् ज्ञानम् अपि भवति इति.
ग्राहकत्वम् इति न, तत्र ग्राहकं, तत्र ग्राहकत्वं कुत्र नाम तत्र कुत्र अस्ति भगिनि तत्र वाक्यं?
तत्र एवमेव त्वक् इन्द्रियमनसोः अपि आशयग्राहकत्वं बोध्यम् इति.
हा नाम तत्र तेषां ग्राहकत्वम् अस्ति, आशयस्य ग्राहकत्वम् अस्ति नाम आशयस्य ग्राहकत्वम्. अत्र अहम् उक्तवान् तत्र ग्राहकत्वं साक्षात् ग्राहकत्वम् इति तत्तु तत्र इन्द्रिये अस्ति, किन्तु यदा आरम्भे अहम् उक्तवान् तत्र ग्राहकं नाम ग्राह नाम प्रत्यक्षं ज्ञानम् अत्र अपि का इत्युक्ते जनकम्. अतः तत्र ग्राहकं नाम प्रत्यक्षज्ञानजनकं, प्रत्यक्षज्ञानं प्रति कारणम् अस्ति इन्द्रियम्. अतः तत्र मनः ज्ञानं प्रति कारणमस्ति, यतोहि मनसा ज्ञानं भवति, तत्र सुखस्य ज्ञानं मनसा भवति. अतः तत्र मनः सुखम् इति ज्ञानं गृह्णाति, ग्राहकमस्ति मनः, तस्य प्रत्यक्षज्ञानं जनयति, अतः ग्राहकमस्ति.
तर्हि यथा भवान् उक्तवान् तत्र संयोगस्य विषयः एव प्रमुखः विषयः इति खलु. तत्र स्पर्शः प्रत्यक्षम् इत्युक्ते स्पर्शः एव तत्र
तत्र जल अपि त्वग् तयोः मध्ये संयोगः भवति
तदा तदा तदेव प्रत्यक्ष ज्ञानम् इति भवति.
हा तदा सत्यं भगिनि, हा तत्र संयोगेन एव तत्र प्रत्यक्षज्ञानं भवति. हा तत्र प्रत्यक्षज्ञानं तत्र इन्द्रियैः ज्ञानं कथं प्राप्नुमः इति तस्य विषये चर्चा न जाता, तद् अग्रे आयाति. हा अतः तत्र तत्र कस्मिन् पुटे एतद् अस्ति इति अहं वदामि तत्र. अतः तत्र तद् अग्रे आयाति, किन्तु तत्र इदानीं तत्र द्रष्टव्यमस्ति, किन्तु अग्रे अस्ति तत् तस्य विवरणं तत्र. अतः तत्र इदानीं तत्र तत्र कथं तत् प्रत्यक्षज्ञानं भवति इति तस्मिन् विषये अग्रे एतद् अस्ति. कुत्र कुत्र इति हा द्रष्टव्यमस्ति भगिनि, तत्र अहं तत्र पुटसङ्ख्या न स्मरामि, किन्तु संयोगः तत्र भवति. संयोगः
न भवति चेत् स्पर्शः एव न भवति.
हा इति अस्ति.
परन्तु अत्र रसनेन्द्रियमध्ये अपि यदि मुखे गुडस्य खण्डं स्थापयामः तत्रापि संयोगः तु वर्तते जिह्वायाः.
भगिनी वदतु भगिनी.
यदा वयं गुडस्य स्वादं ग्रहीतुं जिह्वा उपरि जिह्वायाः अग्रे भागे स्थापयामः गुडस्य खण्ड, तत्रापि स्पर्शः अस्ति. गुडस्य रसनेन्द्रियस्य स्पर्शमस्ति, परन्तु प्रत्यक्षं न जनयति इति वदामः खलु.
हा तत्र स्पर्शः भवति, किन्तु तत्र स्पर्शः केन गृह्यते? घ्राणेन्द्रियेण न गृह्यते खलु. स्पर्शः अस्ति चेत् तत्र तत्रापि त्वक् अस्ति खलु, त्वक् तु सर्वत्र अस्ति खलु.
आम्.
हा अतः स्पर्शः अस्ति, स्पर्शेन तत्र ज्ञानमपि भवति, समीचीनं, किन्तु तत्र घ्राणेन्द्रियेण तस्य ज्ञानं न भवति. अतः तत्र यदा वयं घ्राणेन्द्रियेण विषयः अस्ति, घ्राणेन्द्रियेण कस्य ग्रहणं भवति इत्युक्ते तत्र केवलं गुणस्य एव खलु.
आमां.
हा गन्धस्य एव भवति, तत्र गन्धस्य आशयस्य अपि त्वक् तयोः मध्ये संयोगः भवति तस्मिन् सन्दर्भे, किन्तु तेन आशयस्य ज्ञानं भवेत्, किन्तु तत्तु घ्राणेन्द्रियेण न लब्धं ज्ञानम् खलु.
आमां. तथैव यदि कोऽपि पदार्थस्य स्वरूपमहं न जानामि, मम कृते अस्थितं पदार्थमस्ति कोऽपि मां वदति नेत्रे निमीलयतु अहं किमपि खादितुं ददामि नूतनमस्ति कदापि न तदा मम केवलं गुणस्य ग्रहणं भवति परन्तु न तु आश्रयस्य पदार्थस्य
इति एव अतः तत्र रसनेन्द्रियं केवलं रसस्य ज्ञानं जनयति प्रत्यक्षज्ञानं जनयति न तु आश्रयस्य समीचीनं वा अस्तु तर्हि अग्रे सरामः तर्हि अत्र नरसिंहमहोदय नमस्कारः
नमस्ते महोदय
नमस्कारः अस्तु तर्हि तत्र अशोकमहोदय अग्रे पठति वा तत्र शिष्टं श्रोत्रेन्द्रियम् इति
अस्तु महोदय शिष्टं श्रोत्रेन्द्रियं कर्णपुटेन पृथक्कृतः आकाशदेश एव तत्तु शब्दस्य एव प्रत्यक्षं जनयति न तु आश्रयस्य कुतः आश्रयस्य आकाशस्य अतीन्द्रियत्वात् यस्मिन् हि परमाणुपरिमाण अतिरिक्तपरिमाणम् उद्भूतरूपं च भवति तस्य एव द्रव्यस्य बहिरिन्द्रियेण प्रत्यक्षं भवति न अन्यस्य इति च निर्णीतम् पूर्वं पञ्च इन्द्रियाणां विषयं पठितवन्तः शिष्टं श्रोत्रियन्द्रियः एव अस्ति आकाशः महत् अस्ति कर्णपुटं तद् पृथक् करोति तद् तद् शब्दस्य प्रत्यक्षं जनयति आश्रयस्य न जनयति यद्यपि आश्रयः आकाशः अतीन्द्रियः अस्ति
अतीन्द्रियः नाम इन्द्रियेण तस्य प्रत्यक्षज्ञानं
ग्रह्यति
हा इति समीचीनं हा तत् अतीन्द्रियं किमर्थं तत् अतीन्द्रियम् अस्ति नाम तत्र इन्द्रियं नाम अतीन्द्रियः अस्ति नास्ति इत्युक्ते नाम किम् इति अत्र दत्तमस्ति नाम यस्य प्रत्यक्षज्ञानं बहिरिन्द्रियेण प्रत्यक्षज्ञानं भवति चेत् सः न अतीन्द्रियः यस्य प्रत्यक्षज्ञानं भवति सः न अतीन्द्रियः यस्य प्रत्यक्षज्ञानं न भवति सः अतीन्द्रियः अत्र
यदि परमाणुपरिमाण अतिरिक्तपरिमाणमस्ति उद्भूतरूपम् अपि अस्ति
तदा एव भवति अतः तत्र द्वयमपि भवेत् तत्र परिमाणं कीदृशं भवेत् परमाणुपरिमाणम् अतिरिक्त नाम परमाणुपरिमाणं विहाय परिमाणम् अस्ति चेत् तद् एकम् अपि उद्भूतरूपमपि भवेत् हा यदि द्वयमपि अस्ति तदा एव तत्र द्रव्यस्य बहिरिन्द्रियेण प्रत्यक्षं ज्ञानं भवति नो चेत् न भवति अतः तत्र यदि उद्भूतरूपं नास्ति तदा बहिरिन्द्रियेण प्रत्यक्षं न भवति तदा नाम सः अतीन्द्रियः भवति उद्भूतरूपमस्ति किन्तु परमाणुपरिमाणमस्ति चेदपि तस्य प्रत्यक्षज्ञानं न भवति तदापि अतीन्द्रियः भवति आकाशः अतीन्द्रियः किमर्थं तत्र
उद्भूतरूपं नास्ति
रूपमेव नास्ति
रूपमेव
नास्ति अतः आकाशः अतीन्द्रियः तस्य प्रत्यक्षज्ञानं न भवति एव इति तत्र नाम कालस्य अपि तथैव तत्र कालस्य ज्ञानं इन्द्रियेण न भवति अन्यारीत्या तस्य ज्ञानं भवति किन्तु इन्द्रियेण न भवति प्रत्यक्षज्ञानं कालस्य न भवति कालः अतीन्द्रियः अस्ति हा इति समीचीनं महोदय हा अतः तत्र श्रोत्रेन्द्रियं तत्र इति पृथक् कृतं तत्र श्रोत्रम् इति पृथक् कृतं यतोहि घ्राणेन्द्रियेण रसनेन्द्रियेण तत्र तयोः तत्र ग्रहणं भवति तत्र घ्राणेन्द्रियं गुणस्य गृहं गुणं गृह्णाति रसनेन्द्रियमपि केवलं गुणं गृह्णाति न तु आश्रयं गृह्णाति किन्तु तत्र गूढः अस्ति रसनेन्द्रियं गूढस्य गुडे विद्यमानः रसं यदस्ति तं तद् गृह्णाति किन्तु गूढस्य ज्ञानं चक्षुषा भवति अतः तत्र आश्रयः घ्राणेन्द्रियस्य तत्र गन्धस्य आश्रयः वा अथवा रसस्य आश्रयः वा तत्र किं भवति अतीन्द्रियं द्रव्यं न भवति यतोहि तत्र आश्रयस्य अन्येन इन्द्रियेण ज्ञानं भवति किन्तु श्रोत्रेन्द्रियस्य आशयः तादृशः नास्ति इति गुडस्य ज्ञानं रसनेन्द्रियं केवलं गुडे विद्यमानः रसं गृह्णाति किन्तु गुडस्य ज्ञानं चक्षुषा भवति अतः गुडः अतीन्द्रियः नास्ति किन्तु श्रोत्रेन्द्रियं शब्दं गृह्णाति शब्दस्य आश्रयं न गृह्णाति शब्दस्य आश्रयः न केवलं श्रोत्रेन्द्रियेण तस्य ज्ञानं न भवति किन्तु अन्येन इन्द्रियेण अपि तस्य ज्ञानं न भवति अतः तत्र अतः एव तत्र श्रोत्रेन्द्रियस्य पृथक् कृतं तत्र षड् इन्द्रियाणि तत्र दत्तानि सन्ति तत्र अत्र चक्षुः त्वग् मनः गुण अपि गुणस्य आश्रयः द्वयोः ग्राहकाणि सन्ति अत्र केवलं गुणमात्रग्राहकाणि सन्ति किन्तु पुनः तस्य विभागः कृतः अस्ति तत्र घ्राणेन्द्रियं रसनेन्द्रियम् एकविधम् अस्ति श्रोत्रेन्द्रियम् अन्यविधम् अस्ति यतोहि अत्र आश्रयस्य ग्रहणम् अन्येन इन्द्रियेण भवति अत्र न तादृशं नास्ति इति अस्तु इदानीं तत्र अग्रे यदस्ति प्रत्यक्षयोग्याः वदतु भगिनि
अत्र वयं श्रोत्रेन्द्रियम् इति वयं यद्वदामः वयं किमपि शब्दं शृणुमः इति चिन्तयामः चेत् वाद्यं वादयन्ति वयं शब्दं शृणुमः तत्समये वयं चक्षुषा अपि तद् ज्ञानं प्राप्नुमः किल सो कुतः
कस्य ज्ञानं प्राप्नुमः चक्षुषा
केवलं प्रथमं वयं शब्दं शृणुमः एकवाद्यं वादयन्ति वयं प्रथमं शब्दं शृणुमः सो श्रोत्रेन्द्रियं तस्य ज्ञानं भवति किमपि शब्दम् आगच्छति इति वयं प्रथमं ज्ञानम् आगच्छति परन्तु तत् कुतः आगच्छति तस्य आशयः कः इति वयं चिन्तयामः चेत् वयं चक्षुषा तत्र द्रष्टुमपि शक्नुमः किल
शक्नुमः
वाद्यद्वारा एव एतद् शब्दम् आगच्छति
वाद्यम् आश्रयमस्ति शब्दस्य आश्रयः अस्ति वा अथवा किम्
कुतः तद् आगच्छति इत्येव वयं
कुतः इति वार्ता नास्ति शब्दस्य आश्रयः कः इति एव खलु अत्र
इदानीं वयं घ्राणम् इति स्वीकुर्मः चेत् वयं घ्राणं स्मेल् कुर्मः तद् कुतः आगच्छति ओदनात् आगच्छति इत्येव वयं तत्र प्रत्यक्षम् इति वयं चिन्तयामः किल
सत्यं ओदनं साक्षात् तत्र ओदनं साक्षात् आश्रयः अस्ति खलु तत्र गन्धस्य आश्रयः ओदनम् अस्ति खलु तत्र
आं सत्यं
हा अत्र वाद्यं कोऽपि तत्र वाद्येन तत्र शब्दः उत्पद्यते इति चिन्तयामः तत्र शब्दः कुत्र वर्तते वाद्ये वर्तते वा
वाद्यवादनात् एव आगच्छति किल
वादनात् आगच्छति एतत् अङ्गीकरोमि किन्तु शब्दस्य आश्रयः कः शब्दः इति किमस्ति पदार्थः कीदृशः पदार्थः शब्दः द्रव्यं वा किमस्ति शब्दः
गुणः
गुणः अस्ति गुणस्य आश्रयः भवेत् खलु द्रव्यं कोऽपि द्रव्यम्
आकाश
खलु आकाशः एव शब्दगुणकम् आकाशम् इति एव आकाशस्य लक्षणम् आसीत् खलु अतः आकाशः एव तत्र शब्दस्य आश्रयः यद्यपि तत्र एतत् शब्दं तत्र बाध्येन उत्पादितमस्ति उत्पादितः शब्दः अस्ति किन्तु तस्य साक्षात् आश्रयः अस्ति आकाशः न तु बाध्यं खलु
आकाशः अस्ति चेदपि वाद्यम् इति किमपि नास्ति चेत् तत्र शब्दस्य श्रवणमेव भवितुं न अर्हति किल
तत् सत्यं भगिनि किन्तु शब्दः अस्ति चेत् शब्दं शृणुमः शब्दस्य आशयः आकाशः तस्य ज्ञानं श्रोत्रेन्द्रियेण भवति न वा इति प्रश्नः किं भवत्याः चिन्तनं किम् वाद्यस्य ज्ञानं भवति न वा इति प्रश्नः नास्ति यतोहि वाद्यं शब्दस्य आश्रयः नास्ति खलु वाद्यं तु पार्थिवपदार्थः खलु
कुतः इति तादृशं चिन्तितवती
कुतः इति अस्ति चेत् तत् सत्यं हा तत् तस्य ज्ञानं भवति चक्षुषा भवति सत्यं तत्र वाद्यम् अतीन्द्रियः नास्ति सत्यं हा किन्तु शब्दस्य साक्षात् आश्रयः यः अस्ति आकाशः तस्य ज्ञानं श्रोत्रेन्द्रियेण भवति वा
तत् नास्ति
नास्ति चक्षुषा आकाशस्य ज्ञानं भवति वा
समानं तद् रसनम् इति वयं रसना इति वयं स्वीकुर्मः चेत् प्रथमं वयं गुणं यदा वयं खादामः तद् वयं अनुभवामः तस्य गुणस्य स्वीकृत्य वयम् अनुभवामः तद् अनन्तरं कथं तद् योजनं कुर्मः इन्द्रियस्य वा अथवा आश्रयस्य योजनं कथं चिन्तयामः तत्र
तत्र आश्रयः तत्र रसः गुडः एव आश्रयः खलु तत्र रसस्य आश्रयः गुडः एव गुडः तत्र जिह्वायाम् अस्ति गुडः खलु गुडः इति प्रायशः ज्ञानमपि भवेत् किन्तु जिह्वायां तत्र जिह्वा अस्ति चेत् तत्र त्वग् अपि अस्ति खलु तत्र
आं सत्यं
हा अतः तत्र त्वचा रसस्य आश्रयस्य ज्ञानमपि भवति किन्तु रसस्य ज्ञानं केवलं तत्र रसनेन्द्रियेण भवति तत्र रसनेन्द्रियन् रसनेन्द्रियम् अपि जिह्वा भिन्नं खलु
सत्यं भिन्नं
जिह्वा भिन्नं रसनेन्द्रियं भिन्नम् हा अतः तत्र त्वगिन्द्रियेण तत्र आश्रयस्य ज्ञानं प्राप्नुमः किन्तु रसस्य ज्ञानम् एव तत्र रसनेन्द्रियेण प्राप्नुमः समीचीनं वा भगिनि
अस्तु जि तदेव
तथैव तत्र शब्दस्य शब्दः कस्मात् आगच्छति इति तद् तादृशप्रश्नः अपि भवेत् किन्तु शब्दस्य आश्रयः साक्षात् आश्रयः केवलम् आकाशः अस्ति आकाशस्य ज्ञानं तत्र त्वचा भवति वा
तत् न भवति
न भवति त्वगिन् त्वचा न भवति चक्षुषा न भवति घ्राणेन्द्रियेण न भवति रसनेन्द्रियेण न भवति श्रोत्रेन्द्रियेण न भवति
अस्तु प्रत्येकस्य ग्रहणं प्रत्येकस्य तादृशं भवति
पुनः भगिनि
न प्रत्येकस्य इन्द्रियस्य ग्रहणं तादृशं तद्विधज्ञानेन एव भवति केवलं
यदा वयं वदामः तत्र चक्षुषा गुणस्य अपि गुणस्य आशयस्य ग्रहणं भवति नाम तत्र नीलः घटः अस्ति चेत् नीलरूपं चक्षुः चक्षुषा तत्र अथवा चक्षुः नीलम् इति रूपस्य रूपं गृह्णाति रूपस्य आश्रयमपि गृह्णाति तस्यापि ज्ञानं जनयति तादृशं श्रोत्रेन्द्रियस्य नास्ति यतोहि श्रोत्रेन्द्रियं शब्दं गृह्णाति किन्तु शब्दस्य आशयः आकाशः तस्य प्रत्यक्षज्ञानं न जनयति
अत्र अनुमानम् इति वयं
हा अनुमानम् इति अन्यारीत्या ज्ञानं भवति किन्तु प्रत्यक्षं नाम इन्द्रियेण लब्धं ज्ञानम् अपि यत्र गुणः अपि गुणस्य आशयः अस्ति तेनैव इन्द्रियेण लब्धं ज्ञानं न वा इति प्रश्नः तत्र समीचीनम् अन्य कोऽपि प्रश्नः अस्तु अग्रे सरामः तत्र यत् कोष्टकं चित्रं सर्वम् अस्ति तस्य विवरणं तत्र अग्रे दत्तमस्ति अतः तत्र किञ्चित् अत्रापि पठामः तर्हि तत्र हा अस्तु तत्र धनश्री भगिनी तत्र पठति वा
क्षम्यता महोदय महोदय एतस्मिन् परिचयते प्रथमं वाक्यमस्ति खलु तस्य अर्थः पुनरेकवारं वदति किं कर्णपुटेन पृथक् कृतः आकाशदेशः एव इति तस्य अर्थः मया न अवगतं शिष्टं श्रोत्रेन्द्रियं
कर्णपुटं नाम हेरड्रम् अस्ति खलु कर्णपुटः तत्र श्रोत्रेन्द्रियम् अपि कर्णः भिन्नः अस्ति खलु कर्णः साक्षात् शरीरस्य भागः अस्ति श्रोत्रेन्द्रियम् इन्द्रियम् अस्ति शरीरे अस्ति किन्तु शरीरस्य भागः नास्ति खलु समीचीनं खलु नाम तत्र यथा वयं
भागः अस्ति अन्तरे अस्ति
भागः नास्ति अवयवः नास्ति यथा तत्र हस्तः अस्ति इति नास्ति इति नास्ति अतः एव तत्र पार्थिव तत्र त्रैविध्यं किमस्ति शरीर इन्द्रियविषयभेदात् इति शरीरं भिन्नं शरीरस्य भागं भिन्नम् अवयवाः भिन्नम् इन्द्रियं भिन्नम् अतः तत्र अवयवः नास्ति इन्द्रियम् अतः तत्र श्रोत्रेन्द्रियं कर्णपुटे अस्ति अथवा कर्णे अस्ति अथवा कर्णाग्रवर्ति इति वक्तुं शक्नुमः किन्तु कर्णपुटेन किं भवति आकाशः केवलं तस्य पृथक् भवति किन्तु तावदेव आकाशस्य ज्ञानं न भवति इति आकाश इति सर्वत्र वर्तते खलु आकाशः विभुद्रव्यम् अस्ति तस्य पृथक् नाम तत्र आकाशस्य एकभागः शरीरस्य अन्ते अस्ति इति चिन्तनम् अन्यभागः बहिः अस्ति इति चिन्तनम् अतः तस्य पृथक् करणं भवति खलु
आकाशदेश तत् किम् अस्ति
आकाशदेशः नाम देशः इति तत्र नाम प्रदेशः आकाशदेशः आकाशः यः अस्ति तस्य भागद्वयम् इति अस्माकं चिन्तनमस्ति यद्यपि तत्र आकाशस्य अवयवः नास्ति खलु आकाशदेशस्य भागद्वयम् इति अस्माकं चिन्तनमस्ति नाम शरीरे एकभागः अस्ति बहिः अन्यभागः अस्ति इति चिन्तनं खलु नाम इयद्रम् इति यथा तत्र वाल् इति स्थापयामः खलु भगिनि तत्र बहिः एकः भागः अन्तः एकः भागः इति अस्ति तथैव कर्णपुटेन भवति पृथक् कृतं भवति आकाशदेशस्य किन्तु साक्षात् आकाशदेशस्य ज्ञानं न भवति इति उक्तं तत्र
तर्हि आचार्य आकाशस्य ग्रहणं केनापि इन्द्रियेण न शक्यते इति वा
न शक्यते सत्यम् अथ एव तत्र आकाशः अतीन्द्रियः यस्मिन् तत्र यस्मिन् उद्भूतरूपम् अस्ति अपि परमाणुपरिमाणम् अतिरिक्तपरिमाणम् अस्ति तस्य एव
तथैव कालस्य अपि तथैव
सत्यं अस्तु तर्हि तत्र जयलक्ष्मी भगिनी समीचीनं वा
आं महोदय इतोपि किञ्चित् स्पष्टता अस्ति किन्तु चिन्ता नास्ति
नाम तत्र केवलं तत्र किम् उक्तमस्ति इत्युक्ते तत्र श्रोत्रेन्द्रियेण आकाशस्य ज्ञानं नास्ति केवलं कर्णपुटेन आकाशस्य विभागः कृतः तावदेव इति
अस्तु
वदतु भगिनी विमला भगिनी वदतु भगिनी
हा किञ्चिदेव वक्तुमिच्छामि यथा शब्दस्य तरङ्गाः आकाशे भ्रमन्ति चरन्ति ते एव कर्णपुटं कर्णविवरे आगत्य कर्णपुटस्य कम्पनं कुर्वन्ति तदा एव अस्माभिः शब्दः शृणु श्रूयते
अनुभूयते
तेन का अत एव आकाशः कर्णपुटस्य कर्णस्य अन्तः टिम्पानिक् मेम्ब्रेन् पर्यन्तं यत् अस्ति तदेव आकाशः इति उच्यते आयुर्वेदे अपि
ओ अस्तु 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 हा अस्तु अतः तत्र आकाशः केवलं यद् बहिः अस्ति स एव आकाशः इति
कर्णस्य बहिः अस्ति कर्णस्य अन्तः अपि अस्ति यावत् टिम्पानिक् मेम्ब्रेन् पर्यन्तं यत् यत् स्पेस् अस्ति तदेव
अस्तु 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 हा प्रायशः तस्य एव तत्र उल्लेखः अत्र अस्ति इति मन्ये तर्हि अस्तु भगिनि हा
धन्यवादः
अस्तु समीचीनं धन्यवादः भगिनि हा अस्तु तद् मया
इत्युक्ते आकाशदेशः बहिः अपि अस्ति अन्तः अपि अस्ति कन्नपुटेन पृथक् कृतः इति अर्थः वा
इति एव सत्यं भगिनि आकाशः इत्युक्ते स्पेस् इति भगिनि सर्वत्र आकाशः अस्ति खलु आकाशः इति केवलं तत्र बहिः तत्र औटर् स्पेस् इति नास्ति आकाशः इत्युक्ते स्पेस् इति केवलं
अवगतवान्
तत्र तस्य विभागः जातः कर्णपुटेन तावदेव किन्तु अस्तु तर्हि
धन्यवादः भगिनि
धन्यवादः भगिनी विमला भगिनी धन्यवादः अस्तु इदानीम् अत्र तर्हि तत्र अग्रिमे वर्गे वयं किं कुर्मः तत्र यत् चित्रद्वयमस्ति तस्य विवरणम् अग्रिमे वर्गे पठामः तत्र द्रव्यप्रत्यक्षं केन भवति इति तत्र तदा वयम् उद्भूतरूपम् अपि तत्र परमाणुपरं परिमाणम् अतिरिक्तपरिमाणं तत्र कदा द्वयमपि वर्तते इति तस्य चर्चा अग्रिमे वर्गे भवति अस्तु तर्हि धन्यवादाः नमस्कारः अग्रिमे वर्गे मिलामः तर्हि नमस्कारः
धन्यवादः महोदय